சூக்தி சுதா, ரியாலிட்டி இன் ஃபார்ட்டி வர்சஸ் சப்ளிமெண்ட். 27 ஆஃப் தி ஃபார்ட்டி வர்சஸ் ஆஃப் தி சப்ளிமெண்ட் டு ஃபார்ட்டி வர்சஸ் ஆர் தமிழ் ரெண்டிஷன்ஸ் பை பகவான் ஃப்ரம் சான்ஸ்கிரிட் டெக்ஸ்ட்ஸ். பகவான் ப்ரிப்பேர்ட் மெனி டிராஃப்ட்ஸ் அண்ட் ஃபேர் காப்பீஸ் ஃப்ரம் விச் எ ஃபியூ ஆர் ரீப்ரொடியூஸ்ட் இன் தி கம்பைலேஷன் ஹிரண்யபாஹு. தி ஃபஸ்ட் ஐட்டம் ஈஸ் தி இன்வொகேஷன் மங்களம் copied by Bhagwan from Yoga Vasishtam 5.8.12. The Sanskrit text surrounding the box is Adi Shankara's Moha Mudgaram, verse 9 of Bhajagovindam, and the verse below is its Tamil translation. A set of verses from Yoga Vasishta, Subhashita Ratna Bhandar, that is a collection of more than 10,000 Sanskrit verses, and Srimad Bhagavatam, verse 31, from the main chapter 1048. The translations by Bhagavan constitute verses 3, 4, 5 of the supplement to 40 verses. Note, the supplement to 40 verses first had 20 verses, then increased by Bhagavan to 30 and then to 40. Ko Devaha is the 6th verse in supplement to 40 verses. Kim Jyotistava of Adi Shankara's Ekasloki is the 7th verse in supplement to 40 verses. A verse from Devikalotra is translated by Bhagavan as two different versions and added to his Tamil translation of Devikalotram, verse number 46, and also in supplement to 40 verses as verse number 9. Sharira Poshanarthi of Adi Shankara's Viveka Chodamani, verse 84. Its Tamil translation by Bhagavan is the 3rd and 4th line of the verse 12 of supplement to 40 verses. The Tamil verse in Bhagavan's handwriting is given in the compilation. Devikalotra verse 47 forms the Tamil supplement to 40 verses by Bhagavan as verse number 25. A verse from Subhashita Ratna Bhandar form verse 34 of supplement to 40 verses. Trunatuli Takila Jagatam of Sadashiva Brahmendra, its Tamil form is supplement to 40 verses, verse number 37. The Sanskrit verse Sarva Vedanta Siddhanta Saram forms the Tamil supplement to 40 verses as verse 40. Yoga Vasishtam, a set of instructions of sage Vasishta to Lord Rama. It's a voluminous text containing thousands of verses. Bhagavan selected and copied a few verses to be added finally to the supplement to 40 verses. Two Sanskrit verses from Yoga Vasishtam, Prajnana Mahatmyam, Prajna Mahatmyam, Nama Dvadasa Sargam, 5, 12, 34 and 37 verses of Upasama Prakaranam. The Tamil verse is from Tamil Jnana Vasishtam, Upashanti Prakaranam, verse number 35. Both Sanskrit and Tamil verses are copied by Bhagavan in a piece of paper, Shivananda Lahari. Shivananda Lahari is a composition of 100 verses by Adi Shankara. Bhagavan selected 10 verses from these, and its Tamil equivalents were included as a part of Tamil Parayanam routine during 1930s. Trishulapura Mahatmyam is the Stala Purana of Tiruchuri, the birthplace of Bhagavan. It is an extract from Kshetrakandam of Skanda Puranam. When Vishwanatha Swami's Tamil translation of it was completed, Bhagavan insisted on going through the manuscript and corrected it, even working at nights with the aid of a table lamp. In the Sanskrit manuscript, the initial pages prepared by Bhagavan are presented in the compilation. The Tamil book was published by the ashram in 1946 and was read out in Sundara Mandiram, the house in Tiruchuvi in which Bhagwan was born. Hridayam
Yoga Vasishtam. Sri Yoga Vasishte Upashama Prakrane Yoga Varnanam Nama Saptati Sargaha. Sri Rama Uvacha Brahman Jagati Bhutanam Hridayam Tat Kimuchyate Idam Sarvam Mahadarshe Yasmin Tat Pratibimbati. Vasishta Uvacha Sadho Jagati Bhutanam Hridayam Dvividham Smritam Upadeyam Cha Heyam Cha Vibhagoyam Tayo Shrunu Yattaya Parichinne Dehe Yad Vakshasontaram Heyam Tad Hridayam Viddi Tana Ekatate Stitav Samvin Matram Tu Hridayam Upadeyam Stitim Smritam Tadantare Cha Bahye Cha Nacha Bahye Nacha Antare Tattu Pradhanam Hridayam Tatredam Samavastitam Tadadarsha Padarthanam Tatkoshah Sarvasampadam Sarvesham Eva Jantunam Samvit Hridayam Uchyate Na Dehavai Ekangshu Sarvesham Eva Jantunam Samvit Hridayam Uchyate Na Dehavai Ekangshu Jada Jirnopalopamah Tasma Samvin Maye Shuddhe Hridaye Hrut Vasanah Balan Niyojite Chitte Pranaspando Nirudyate.
Om Namo Bhavate Sri Ramanaya. Yoga Vasishtam. Chinta Maniriyam Prajna Hrutkoshasta Vivekinah Phalam Kalpalate Vaisha Chintitam Samprayachati. இலங்கிய சிந்தாமணியாம் இதயம் என்னும் சர்க்கரையில் இருக்கும் போதம் கலங்களில் விவேகியர்க்கு கருதுபொருள் கல்பகம் போல் கணத்தில் நல்கும். விவேகினம் அசம்மூடம் பிராக்யமாசா கணோத்திதாக தோஷான சம்பாதந்தே சம்நத்தமிவ சாயகாக. துலங்கு விசாரம் படைத்து பேதமை போய் நல்வாழ்வு தோன்றினோரை இலங்கு கவசத்தோரை அம்புகள் போல் காமாதி விகல்பம் தாக்கா. தாவாஹமிதி தீவிருத்யா ஸ்வார்ப்பணமப்யாச யோகதஃ பலதம் ஆத்யந்திகம் து வித்யாத் பிரவிலாபனமேவ ஹ்ருத்யஹந்தாயாஹ. ஓம் தத் சத் சிற்றம்பலம்.
சிவானந்த நகரி அங்கோலம் நிஜ பீஜ சந்ததி அஜஸ்கந்தோ பலம் சூஜிகா சத்வீனைஜ விபும் லதக்ஷிதி முகம் சிந்துசரித்வல்லபம் ப்ராப்னோதீஹ யதா ததா பசுபதே பாதாரவிந்தத்வயம் சேதோ மிருத்யுமுபேத்ய திஷ்டதி ததா சா பக்திரித்யுச்யதே. பக்திர் மகேஷபத புஷ்கரவா வசந்தி காதம்பினீவ குருதே பரிதோஷ பருஷம் சம்பூரிதோ பவதி யஸ்ய மனஸ்ததாக சஜன்ம சத்யம் அகிலம் சபலம் சநான்யத். ஜனன மிருதியுதானாம் சேவயா தேவதானாம் ந பவதி சுகலேஷம் சம்சயோ நாஸ்தி தத்ர அஜனிம மிருத ரூபம் சாம்பவீஷம் பஜந்தே யைக பரம சௌக்யம் தேகி தன்யா லபந்தே. கடோ வா மிருத்பிண்டோப்யனுரபி ச தூபோக்திரஜலகம் படோ வா தந்துர்வா பரிகரதி கிம் கோரசமனம் மிருதா கண்டக்ஷோபம் பகதி தரசா தற்கவஜதாம் பதம் போஜம் சம்போர்பஜ பரம சௌக்யம் பிரஜசுதி. பக்ஷஸ்தாடன சங்கஜா விசலிதோ வைவஸ்வதோ திர்ஜராக கோட்டீரோஜ்வல ரத்ன தீபகலிகா நீராஜனம் குர்வதே திருஷ்ட்வா முக்தி வசுஸ்தனோதி நிவ்ருதா ஸ்லேஷம் பவாமி. பதே யஜ்ஞே தத்தவ பாத பத்ம பஜனம் தஸ்யேக கிம் துர்லபம். நரத்வம் தேவத்வம் நகவன மிருகத்வம் மசகதா பசுத்வம் கீடத்வம் பவது விககத்வாதி ஜனனம் சதா துத்பாதப்ஜஸ்மரண பரவானந்த நகரி விஹாராசக்தம் சேது ஹய விஹிம் தே நபுஷா புகாயாங்கே బహిరపి వనే మాత్రిశిఖరే జలే వామంగము వా వసదు వసతే కింబద ఫలం సదా యస్సీవంత కరణమపి శంభో తవ పదే స్థితం చేతి యోగోసౌ సచ పరమయోగీ సచ సుఖీ. గభీరేకాసారే విశది విజదే ఘోర విపినే విశాలే శైలే చ భ్రమతి కుసుమార్థం జడమతి సమత్యైకం చేత సరసిజ ఉమానాథ భవతే సుఖేనావస్థాతుం జనయిగ న జానాతి కిమహో. వటుర్వాగేవా యతిరపి జటీవా తదితరో నరో వాయ కశ్చిత్ భవతు భవ కిం తేన భవతి యదీయం హృత్పద్మం యది భవదధీనం పశుపతే తదీయస్త్వం శంభో భవసి భవభారం చ వహసి. ఆద్యా విద్యా హృద్గత నిర్గతాసీతి విద్యా హృద్యా హృద్గత త్వత్ప్రసాదాది సేవే నిత్యం శ్రీకరం త్వత్పదాబ్జం భావే ముక్తేర్భాజనం రాజమౌళే.
శ్రీ స్కంద మహాపురాణే క్షేత్రఖండే శ్రీ త్రిశూలపుర మహాత్మ్యం అధ్యాయ విషయానుక్రమణిక. అధ్యాయ విషయాని మంగళం దేవతా ప్రార్థన. ప్రథమ క్షేత్ర మహిమానువర్ణనం, ద్వితీయ క్షేత్ర మహిమానువర్ణనం, తృతీయ బృహత్ బలోపాఖ్యానం, చతుర్థ ప్రళయ జల శోషణం, పంచమ ఇంద్రద్యుమ్నోపాఖ్యానం, షష్ఠ త్రిశూల తీర్థ మహిమానువర్ణనం, సప్తమ పాపహరి మహిమానువర్ణనం, అష్టమ కణ్వ తీర్థ మహిమానువర్ణనం, నవమ గాలవ తీర్థ మహిమానువర్ణనం, దశమ కోట్యాది తీర్థ మహిమానువర్ణనం, ఏకాదశ బ్రహ్మాది తీర్థ మహిమానువర్ణనం, ద్వాదశ శూల తీర్థ ప్రాశస్త్య వర్ణనం, త్రయోదశ శూల తీర్థ ప్రాశస్త్య వర్ణనం, చతుర్దశ పన్నగగిరి కథా వర్ణనం. ఈ అరుణాచలం 1944.
ఇన్ ది స్టోరీ ఆఫ్ నందనార్, వన్ ఆఫ్ ది 63 సైవైట్ సెయింట్స్, ఎ లైన్ అకర్స్, అయ్యే మెత్తకడినం, ఓ వెరీ డిఫికల్ట్, ది సెల్ఫ్ నాలెడ్జ్ ఈస్ వెరీ డిఫికల్ట్. ఏ ఫేమస్ పొయిటికల్ కంపోజిషన్ ఆఫ్ గోపాలకృష్ణ భారతి, ఏ పోయిట్ అండ్ ది ఆథర్ ఆఫ్ ది స్టోరీ ఆఫ్ నందనార్. మురుగనార్, ది తమిళ్ పోయిట్, టుక్ అప్ దిస్ రెఫ్రైన్ బట్ రోట్ అయ్యే అతి సులభం, ఆత్మవిద్య అయ్యే అతి సులభం. ఓ వెరీ ఈజీ, ది ఆత్మవిద్య ఈజ్ ది ఈజియెస్ట్. ఆఫ్టర్ రైటింగ్ ది initial lines of Pallavi and Anupallavi, Muruganar could not proceed and so beseeched Bhagavan to write the charanams and complete the poem. The Tamil poem copied in Devanagari script by Bhagavan is presented in the compilation. Prathasmaranam, morning prayer, Sanskrit composition of Jagadishwara Shastri copied by Bhagavan in Granthalipi is presented in the compilation. Matrabhoteshwara Ashtakam, the 8 verses are on the glory of the Matrabhoteshwara shrine, the samadhi of Bhagavan's mother Ayyadammal in the ashram. It contains 2 invocatory verses to Shankara and Ramana. It was composed by Jagadishwara Shastri and copied by Bhagavan. Dayashtakam, a composition of 9 verses by Jagadishwara Shastri on Bhagavan. Taravali Stuti is a composition by Jagadishwara Shastri on Bhagavan. Day by Day with Bhagavan, 8th August 1946. Mrs. Desai read out before Bhagavan her Gujarati verse translation of Jagadishwara Shastri's Abhayashtakam, an English translation of which was recently made for inclusion in the Golden Jubilee Souvenir Volume. The Abhyashtakam copied by Bhagavan is presented in the compilation. Niranjana Sodasi. This compilation is also by Jagadishwara Shastri on Niranjanananda Swami, ది యంగర్ బ్రదర్ ఆఫ్ భగవాన్ అండ్ ది సర్వాధికారి ఆఫ్ శ్రీ రమణాశ్రమం. ఇట్ ఈస్ కాపీడ్ బై భగవాన్ ఇన్ ది సేమ్ నోట్ బుక్ అలాంగ్ విత్ ది కంటెంట్స్ ప్రెసెంటెడ్ ఇన్ ది ప్రీవియస్ పేజెస్ ఆఫ్ ది కంపైలేషన్. రమణైక శ్లోకి ఈస్ ఎ శ్లోక ఆన్ భగవాన్ బై జగదీశ్వర శాస్త్రి. అపీత కుచాంబాస్తవ బై అప్పయ్య దీక్షిధర్ ఈస్ కాపీడ్ బై భగవాన్. లింగోత్పత్తి కథనం కూర్మ మహాపురాణే పూర్వార్ధే 26th చాప్టర్ టైటిల్ పేజ్ కాపీడ్ బై భగవాన్. అద్వైతబోధ దీపిక విషయ అనుక్రమణిక కంటెంట్స్ అండ్ విషయ సంగ్రహ సినాప్సిస్ కాపీడ్ బై భగవాన్. అద్వైతబోధ దీపిక ఇన్ గ్రంథా స్క్రిప్ట్ అనుక్రమణిక కంటెంట్స్ అండ్ విషయ సంగ్రహ సినాప్సిస్ రిటన్ బై భగవాన్ ఈస్ ప్రెసెంటెడ్ ఇన్ ది కంపైలేషన్. చింతాదీక్షిత చింతనాని. చింతాదీక్షిత ఏ తెలుగు పోయిట్ రోట్ పోయమ్స్ ఆన్ భగవాన్ అండర్ ది టైటిల్ చింతాదీక్షిత చింతనలు. ఇట్ ఈస్ ట్రాన్స్లేటెడ్ ఇన్ టు టెమిల్, సాంస్క్రిట్ ఎట్సెట్రా. భగవాన్ రోట్ ది టైటిల్ ఫర్ ది సాంస్క్రిట్ వర్షన్ అండ్ ది కంటెంట్స్. ది కంటెంట్స్ ఆర్ ఓ భగవాన్, లబ్ధవాన్, భగవద్ బాల గీతం. లూ షీట్స్ వర్ స్టిచ్డ్ ఇన్ టు ఎ నోట్ బుక్ బై భగవాన్. ది టైటిల్ పేజ్ ఇన్ భగవాన్స్ హ్యాండ్ రైటింగ్ ఆర్ ప్రెసెంటెడ్ ఇన్ ది కంపైలేషన్. డమరక సూత్రాన్ని ఆఫ్ నందికేశ్వర ఎక్స్ప్లనేషన్ సూత్రాస్ అండ్ వ్యాఖ్యాస్. భగవాన్ రోట్ ది టైటిల్ ఇన్ ఆర్టిస్టిక్ స్టైల్ అండ్ ఎ పేజ్ ఫ్రమ్ భగవాన్స్ హ్యాండ్ రైటింగ్ ఆర్ ప్రెసెంటెడ్ ఇన్ ది కంపైలేషన్. లక్ష్మణ శర్మ ట్రాన్స్లేటెడ్ భగవాన్స్ తమిళ్ ఉల్లదు నాగ్పదు ది రియాలిటీ ఇన్ 40 వర్సెస్ ఇన్ టు సాంస్క్రిట్. వెన్ ది ఫైనల్ షేప్ ఆఫ్ దిస్ వర్క్ రమణ హృదయం వాజ్ సబ్మిటెడ్, భగవాన్ రోట్ ది టైటిల్ ఇన్ ది మ్యాన్స్క్రిప్ట్ విచ్ ఆర్ ప్రెసెంటెడ్ ఇన్ ది కంపైలేషన్. శివజ్ఞాన బోధ సూత్రం. కే నటేషన్ ప్రెసెంటెడ్ ఎ కాపీ ఆఫ్ భగవాన్స్ హ్యాండ్ రిటన్ page to the ashram archive and the same is reproduced in the compilation with a note by him. The note says, while I was in the ashram in 1940s Bhagwan was describing about Nayana's discourse on Shaivism at the local conference in 1920s. At that time Nayana expressed his inability to talk on Shaivism. But Bhagwan, briefing the subject, wrote for him a copy of Sivajnana Bodha Sutram and gave him. Thereafter, there was no difficulty in addressing the conference by Nayana. K. Natation, requested Bhagwan to give the Sutram in writing. Bhagwan graciously copied the same in a sheet and gave it to K. Natation.
సులభం ఆన్మ విద్య అయ్యే అది సులభం, అయ్యే అది సులభం ఆన్మ విద్య అయ్యే అది సులభం. నొయ్యార్తమకుం ఊళం కయ్యామలగక్కని పొయ్యాయొళియ మిగు மெய்யாய் உளதான்மையே அதி சுலபம் ஆன்ம வித்தை ஐயே அதி சுலபம். மெய்யா தீர்ந்திடவும் பொய்யாம் உடம்புலகம் மெய்யாய் மூளைத்தெழும் பொய் மெய்யார் நினைவணுவும் உய்யாதொடுக்கிடவே மெய்யார் இதயவேளி வெய்யோன் சுயமான்மா விளங்குமே இருளடங்குமே இடருடுங்குமே இன்பம் பொங்குமே ஐயே அதிசுலபம் ஆன்ம வித்தை ஐயே அதிசுலபம் சேர்வோர் நார் ஏனும் மதனா நானார் இடம் ஏதென்றுள் போனால் நினைவுகள் போய் நானான் என குகையுள் தானாய்த்திகழும் ஆன்ம ஞானமே இதுவே மோனமே ஏகவானமே இன்பஸ்தானமே ஐயே அதிசுலபம் ஆன்ம வித்தை ஐயே அதிசுலபம் தன்னை அறிந்திடில் பின் என்னை உளதறிய பின்ன உயிர்களில் அபின்ன விளக்கேனும் அத்தன்னை தனில் உணர மின்னும் தனுள்ளான பிரகாசமே அருள் விலாசமே அகவிநாசமே இன்ப விகாசமே ஐயே அதிசுலபம் ஆன்ம வித்தை ஐயே அதிசுலபம் நஷ்டம் ஏழ எம்மார்க்கமதனினும் இம்மார்க்கம் மிக்கெளிது சொன்மானதனுவின் கண்மாதி சிறிதின்றி சும்மாமர்ந்திருக்க அம்மாகத்தில் ஆன்ம ஜோதியே நிதானுபூதியே இராது பீதியே இன்பம்போதியே ஐயே அதிசுலபம் ஆன்ம வித்தை ஐயே அதிசுலபம் விளக்கும் கண்ணாதிய பொறிக்கும் கண்ணாமன கணுக்கும் கண்ணாய் மனவீணுக்கும் விண்ணாய் ஒரு பொருள் வேறெண்ணாதிருந்தபடி உள்நாடுளத்தொழிரும் அண்ணாமலை நான்மா காணுமே அருளும் வேணுமே அன்பு பூணுமே இன்பு தோணுமே ஐயே அதிசுலபம் ஆன்ம வித்தை ஐயே அதிசுலபம் ஐயே அதிசுலபம் ஆன்ம வித்தை ஐயே அதிசுலபம்
ஓம் நமோ பகவதே ஸ்ரீரமணாய. ஸ்ரீரமண பிராதஸ்மரண ஸ்தோத்திரம். பிராதஸ்மராமி அருணசைலநிதம்ப திவ்ய புண்ணியாஸ்ரமே ருசிரமஞ்ச வரேசயானம் ப்ராவாரக ஆவ்ருததனும் முகுலீகிருதாக்ஷம் அந்தர்முகம் ரமணம் ஆத்மசமாதிலீனம். ப்ராதர்நமாமி அருணசைலவிஹாரலோலம் அஸ்பர்ஷயோக சகஜ ஆத்மசமாதிவஸ்யம் ஆவிர்பவன் நிஜ சுகானுபவைக த்ருப்தம் அவ்யாஜ பூத கருணம் ரமணம் சரண்யம். ப்ராதர்பஜாமி அபரிலுப்த நிகூட சக்திம் ஞானாக்னிதக்தசஹகாரணஜன்மபீஜம் லோகம் சமஸ்தமபி யோஜயிதும் சுகேன லீலாகிருஹீதவபுஷம் ரமணம் முனீந்திரம். ப்ராதஸ்து வேஸ்துதிபதாதிகமப்ரமேயம் ஆசேவினாம் அமிர்தபாவவிதானதக்ஷம் ஆசேசனம் நயனயோரனவத்யசீலம் அம்ஹோ நிவாரணசனம் ரமணம் யதீந்திரம். ப்ராதர்ப்ருவே ரமண பாவனநாமதேயம் யத்பாகதேயமகிலஸ்ய தனோதி ஜந்தோஹ ஆம்ரேடிதம் ஹரதி யத்வ்ருஜினம் சமஸ்தம் யேன க்ரமாத் பவதி ஸோஹம் இதி ப்ரபோதஹ. யஸ்லோக பஞ்சகமிதம் படதி ப்ரபாதே சௌபாக்யதம் பகவதோ ரமணீஸ்வரஸ்ய தஸ்மை சமஸ்த ஜன கர்ம பல ப்ரதாதா ஸ்ரேயஸ்ய ஏவ ரமண சகலம் ததாதி. ஸ்ரீ ரமண ப்ராதஸ்மரண ஸ்தோத்திரம் சமாப்தம். ஓம் தத்ச. திருச்சிற்றம்பலம்.
ஜகதீஷ சாஸ்திரி பிரணித மாதிருபூதேஸ்வர அஷ்டகம். ஸ்ரீ சங்கர அஜ்ஞானந்த தமோ விமோஹித தியாம் துர்வாத கோலாஹலை ஆலீனே சகலே சனாதனபதே காலேய லீலாயிதை க்ஷேமாய க்ஷிதிமண்டலே கருணயா க்ருத்வா க்ருதிம் ப்ராக்ருதிம் நிர்தூதாகில துர்மதோ விஜயதே ஸ்ரீ சங்கர சங்கர. ஸ்ரீ ரமண புண்ணியை பூதல சம்பிரமை உபனிஷத் பாஷ்யாதி வாங்குவனை சிஷ்யைரச்ய ஃபலீகிருதே ஸ்வரசித த்ரைலோக்ய ரக்ஷாக்ரமே தீயா சங்கர சத்குரு புவி புனஜீதாவதார ஸ்வயம் சோயம் ஸ்ரீரமணோ குரு குண கணை அத்யாத்ம நிஷ்டோ முனி. அத ஸ்ரீ மாதிருபூதேஸ்வராஷ்டகம். மாதா த்வம் ச பிதாஸி சர்வ ஜகதாம் மாதா பிதா வானதே தஸ்மாத் த்வம் புவி விஸ்ருதோஸி பகவான் ஸ்ரீ மாதிருபூதேஸ்வர தேன த்வம் மஹிலார்த விக்ரஹ இதி ஖்யாதஸ்ய நாம் நைவ தே தத்வார்த்தாத் கல நாயகே வலமஸௌ ஜாகர்த்தி யோகேஸ்வரி. சித்த க்ஷேத்ரமிதம் ஜகத்சு விதிதம் தேவோருணாதீஸ்வர சித்த ஸ்ரீரமணீய ஹஸ்த விபவா ஸ்ரீ மாதிருபூதேஸ்வர சித்தோசௌ புவி சிதி தஸ மஹா யோகேஸ்வரி ஜாயயா பர்யாப்தம் த்விதம் ஏததிரிய மஹிம பிரக்யாபனே பூஜுஷாம். பீமை போகி வரை விபூஷித தனோ யத்ய பிரபீதி பிரத பூத பிரேத நிகேத கோபி ஃபலதோ பிக்ஷாக ஏவ ஸ்வயம்
भूतै प्रेतगणै वृतोऽपि भजताम् ध्यानास्पदम् योगिनाम् सोऽयम् चित्रचरित्र को विजयते श्रीमातृभूतेश्वर। भीतो भीम भुजङ्गमैनृच्छि तथा प्रीतो हिमांशोकरात् पूतो जन्नुसुता जलन्नयन च पूतोऽस्ति सम्भूषणा। नो दुःखी चिति भस्मन पितृवन वासा च योगाम्बिका सङ्गान्नापि सुखी समो विषमदृक् श्रीमातृभूतो वतु। दिग्रूपम् वसनम् विहाय रुचिरम् क्षौमम् वसानः शुभम् हित्वा वासरुचिम् श्मशानगहने पुण्याश्रमैकाश्रयः। चित्त्यम् भस्म विहाय चन्दनरसै माल्यै कृतालङ्क्रिय योगाम्बा गृहमेधको विजयते श्रीमातृभूतेश्वरः। यच्छक्त्या रमणाश्रमस्थलमिदम् भूवासिनाम् नन्दनम् जातम् स्वस्य विचित्रशिल्पिरचना वैचित्र्यशैत्वम् महत्। श्रोणादीश्वरसानुगः स जगताम् मीशो निरीश स्वयम् सैर्वैश्वर्यनिधि गुणोतु दुरितम् श्रीमातृभूतेश्वरः। गङ्गाचन्द्रकलाधरोऽसि शिरसि श्रीमातृभूतेशते वामार्देककरुणारसादरदया योगेश्वरी राजते। शीताङ्गाशभुजङ्गमा करपदो किञ्चाभिषेको निशम् संभाषैत्यमिदम् कथय दिवसे चित्तेन तप्ते मम। माता पुत्रमणस्वया भगवत सौन्दर्य नाम्नी सति पश्याशैव समस्तलोकजननि त्वेनापि सम्पूजिता। अद्य त्वे तु विहाय सा परिणता श्रीत्वम् पुमाकारतः लिङ्गातिक्रमरूपतश्चलसति श्रीमातृभूतेश्वर। भगवत् रमणाचार्य मातृभूतेश्वर स्तुति अर्पिता तत्पदपन्दे जगदीश्वर शास्त्रिणा इति मातृभूतेश्वर अष्टकम् समाप्तम्। अथ जगदीश शास्त्री कृतम् दयाष्टकम्। मातस्त्वाम् रमणेश सद्गुरुकृपे नाथामि नत्वा मुहुः क्रुद्धे शान्तिनिकेतनेऽपि रमणे मत्सञ्चितै दुष्कृतै। तत्काले भवति तदीय हृदये सान्निध्यम् आबिभ्रति यद्यस्मात् प्रियमातनोषि तदलम् तस्य प्रिया त्वम् यतः। देवी त्वम् करुणे श्रितासि रमणम् सोऽपि त्वदावर्जितः त्वाम् हित्वा प्रियवल्लभांश्च नृणाम् भद्रम् न कर्तुम् क्षमः। त्वम् चेत्तस्य विभो भवत्कृतपरिष्वङ्गैरपाङ्गैरमुम् मामालोकयसे क्षतिस्तव तुका किम् स्याश्च मे दुर्दशा। नाम्नासौ रमणः समस्तजगताम् जागर्ति ते गृह्यकः भक्तार्ति प्रविदुनैकचतुरा मूर्तिस्तवान्यादृशी। तस्मान्मामक मानसार्ति हरणम् कुर्यान्न चेत्त्वम् कृपे नश्चेदन्तत वा कृतिम् वदन कथाम् स्यादात्मलाभस्तवम्। त्यक्त्वा अन्यान् अखिलान् सुरान् सुरपतिम् त्वद्वल्लभम् सेवितुम् शान्तम् श्रान्तिहरम् तदा शमपदम् मय्युध्यते गाहितुम्। मातश्रीरमणैकवासिनि दये विघ्ना प्ररूढामुः बिन्दस्ताम् पतता कुदा अपि जडे ते श्रान्तिहारी जर। किं वा ते रचितम् दये न रुचितम् किञ्चिन्मयोपायनम् प्रागेन प्रबलापराधकबल त्वत्पादयो अर्पित। सत्येवम् हृदयज्वरम् मम कथम् हर्तुम् विलम्बोऽम्बते बालस्यार्तिहृतो समस्ति भुवने को वा विना मातरम्। एतस्याम् दुरवस्थितो विमुखता यद्यस्ति मत्पालने मग्नोऽहम् विपदम् बुधो विगलित क्लिश्नामि नश्यामि च। मग्नस्यायशो बुधौ त्वमपि मे यत्किञ्चिदास्तामिदम् स्वोद्धारे तु दये स्वयम् प्रयत्नम् कर्तव्यमेव त्वया। सार्वस्यादिगुणा सहस्रगुणिता ये सन्ति दिव्याद्भुता ते सर्वे रमणं श्रितापि सदा व्यर्था भवत्या विना स्वीयाख्यां रमणस्य निर्वहयितुं तेन क्षमास्त्वामृते तस्मान् मां कम अन्तुजालमखिलं क्षन्तुदये अभ्यर्थये पापौघं दलयस्य ये कवलय स्यार्तिश्च कीर्तिं तनोश आनन्दं परमं च कन्दलयसि श्रेयांसि भूयांसि न ब्रह्माद्यान्नपि किङ्करान् वितनुषे मुक्तिं विदत्सेतराम् अम्ब श्रीरमणस्वरूपिणि कृपे बद्ध प्रणामाञ्जलिः कलिना बलिना कदर्तितानां स्वहित ज्ञान विलुप्त मानसानां इदमस्तु परायणं नराणां रमणेशीय दयाष्टकं धरण्याम् इति दयाष्टकं सम्पूर्णम्। श्री जगदीश्वर शास्त्रिणा विरचितं तारावली स्तोत्रम्। तारावली स्तुतिः। रमणेश पदाम्बुजरजकणं पाश्महे यद्वासना परिष्वंग द्विगलन्ति कुवासना आह्लादवं मञ्जनं नयनयो रंगे सुदालेपनं धैर्यं चेतसि खेदनामगदं प्रोत्सारकं भेषजं मद्यान्नार्कैव प्रसूति जलदौ लोकप्रकाशोदयम् पुण्यै श्रीरमणेश्वरं परणतै धन्या लभन्ते नरा श्वाणाद्रीशकुटी विहार सरसे दग्धाङ्गजातैधसे कारुण्यादिगुणैकधाम मनसे अन्वर्तिकृच्छन्दसे सर्वापद्दुरितान्धसे भय प्रोद्धारकात्योजसे भक्तश्रेणिशिखाद्रतान्द्रिरजसे सेवन्नति तेजसे मोहातीततमसि भगवन् मुग्धमूर्तिं दधान वेलालङ्घि व्यवहृतोरत बद्धवन्नटीषि भक्तत्राणं भवजलनिधे आत्मनैव प्रणेतुं पर्यङ्केऽस्मिन् वससि यदियं भाति ते कापलीला। दूरीं श्लोक 5। दूरीं कर्तुं प्रभवति तवोपासनेनैव प्रजानां एनो राशि निति गुरुपणे त्वत्समीपाशितानां त्वद्भक्तानां अपि बहुविधा भीष्टकामार्दितानां भीतिं किं वा सृजति भगवन् व्यर्थचिन्ता निदानम् नाना शाखा विवृत महिमा नाशिता शेष मोह मौनालम्बी प्रमुषित जटः साधु संगैरुपेतः मञ्चस्थोऽयं रमण भगवान् दक्षिणामूर्तिरास्ते प्रत्यासत्ते अरुण महस प्राप्य सारूप्य लक्ष्मीम् आन्तेरेकं सदनममृता सारशीतं प्रकृत्या सौम्यं रूपं रमण भगवन् दर्शनीयं त्वदीयम् वैराग्यात्ते तृणवदखिल त्यागकाले कराले द्रष्टुं दृष्ट्या कैव चतुर स्वां त्वमेव क्षमोऽसि। श्लोक 7। श्लोक 8। साक्षात्कृत्या अरुणधरणि भूत्वासिनं सद्गुरुं त्वाम् द्रश्यन् अन्यत् किमु वयमिन तावकी नोपदेशै ऐदं पर्यं निगमशिरसां यत्र सञ्चित्स्वरूपे ब्रह्मैव त्वं तदसि भगवन् नित्यमुक्तस्वरूपम् दारान् बन्धुम् अपि च तनया क्षेत्रवित्तानि गेहम् सन्तस्त्यक्त्वा सकलमपि ते पादपद्मं भजन्ति किन्त्वेतां त्वं कपटवचनै भीषयन्नाथ नैवं तत्त्वं ब्रूया न खलु भवतो वञ्चनां ते लभन्ताम्। श्लोक 10। शब्दाद्याख्यै विषयनिचयै व्यञ्जितं दृष्टनष्टं सौख्यं दुःखोत्तरमपि मया बुध्यते मोक्षतुल्यम् भोगायेते रमण विरसा यस्यते लेशलेशा सान्द्रानन्द स्फुरित जलधिम् त्वान्तमेवाश्रयाम ताहं याचे रमण भगवन् लौकिकम् भोगजातम् नापि स्वर्गम् सुरपरिवृढा दिष्टितम् ब्रह्मलोकम् याचेऽहम् त्वाम् चरणपतित त्वत्पदाब्जैकसेवा दीनामात्मप्रवणनिपुणाम् दृष्टिमन्तर्मुखीम् त्वाम् उर्व्याम् स्वैरम् कतिचन जना देवतानाम् रूपाणाम् दिव्यानाम् वा स्तवनरचनै कालजालम् क्षिपन्तु त्वत्पादाब्जा कलनजनिता नन्दनिष्यन्दसिन्धो अन्तचारै वयमिह सदा कालमेते नयामः गन्तव्यासा प्रभुनिवसति अञ्जनीया तदीया भृत्या सेव्य प्रभुरपि धनै सद्ममे पूरणीयम् इत्थम् चिन्ताम् चिरपरिचिताम् नाथ सन्त्यज्य सोऽहम् त्वन्निद्याना सफल जननम् श्याम् कदा वा वद त्वम् आड्यालोद्यु वसुवसुमतिम् हाटकम् वा पटम् वै एवम् भ्रान्त्या धनिक सदनम् त्वामुपेक्ष्याश्रयामः लब्धम् किन्नो रमण भवतोपेक्षया जायमानै रेणः कूटै खलु कृपणता केवल वर्धतेन इभ्यम् कञ्चित् कथमिदरा कोणमात्राधिपत्या हंयो दृष्ट्वा शुनक ललितै प्रेणयित्वा चिरेण क्लेशालब्धम् धनमपि चिरस्थायि किम् नाथ यस्मात् अक्लेशेन स्थिरफलसुनम् किम् त्यजामो भवन्तम् श्रान्तम् गात्रम् दुरदिपगृहद्वारयानार्दनार्थम् श्रान्ता वाचा स्तवनरचना दुष्प्रभूणाम् शठानाम् क्रान्तम् चित्तम् दुरधिपतनोश्चिन्तनेनैव गाढम् क्लान्तम् भक्तम् रमणपतितम् त्वत्पदे पालये माम् कुर्वन्दन्तप्रकटनविधिम् दुष्प्रभूणाम् पुरस्ता मिथ्यास्तोत्रैरचितविगुणा प्रीणयम् स्थाननेकै प्रापम् व्यर्थश्रममिह मुहुः नाथ एतावतालम् दुष्प्रापम् किम् रमण भवतः संश्रये सत्य नाप्ये संवेदीन सुरतरुगण कामधेनु पशुसा ग्रावा चिन्ता मणियपि कवौ पक्षपाती च भोज कर्णो दुष्टा श्रयण कलुष कालाकाङ्क्षीपयोद स्तौदार्येते रमण तुलनाम् याति नान्यो वदान्यः गेहो नाक प्रणमति खल पातकम् पुण्यतिद्रा वेशी मित्रम् विषयज सुखम् मोक्षतीक्ष्मादिपर्च 19 रिपीट गेहो नाकः प्रणमति खल पातकम् पुण्यतिद्रा द्वेषी मित्रम् विषयज सुखम् मोक्षतीक्ष्मादिपश्च दासो मृत्युर्विषजति महादूषणम् भूषणम् स्यात् यत्पादाब्ज प्रपतनवशान् तम् नमामो भवन्तम् श्लोक 20 सर्वज्ञस्त्वम् जडमतिरहम् त्वम् प्रभुस्त्वेष दीन दुःखागार प्रतिपदमहम् सौख्यपाथो निधिस्त्वम् सर्वम् कर्तुम् प्रभवति भवान् अल्पशक्ति किलाहम् भिन्नावस्था किमिति जनिता मय्यभिनैत्वमेव समीहा सन्तान् नैहृदयमिदम् आकृष्टमदयम् ततो अन्यद्दैनम् एकिमिव निपिपदस् सन्ति सतसः अनाख्येया अन्या अलमलमये गुणनमिदं भवोर्मिश्वेता सुप्रवितर गुरु चेतसी शमम् त्वन्मूर्तौ मे रमण भगवन् मज्जतान्नेत्रयुग्मम् त्वद्ध्यानाद्वन्यपि परवशम् स्वान्तमभ्येतु शान्तम् त्वत्पूजार्थ वपुरपि सदा त्वत्स्तुतौ वाक् च भूयात् इत्थम् नो चेदाह भुवने स्वैरचारीह तस्याम्
वेदान्तास्ते कति कति लसन्त्येषु शाखास्वनन्ता तासाम् अर्थ प्रवचन परम् शास्त्रजालम् त्वनन्तम् तेषाम् वर्ण ग्रहण अपि वा नालमेकम् पुमायु त्राता न स्वम् यदि न गुरुरा किम् भवाब्धिम् तरेम
नामम् नामम् रमण चरण द्वन्द्वम् अद्वन्द्व हेतु श्रावम् स्वाहम् हृदय हितदा सुप्तिधारास्तदीया ध्यायम् ध्यायम् रमण भगवन् मूर्तिमव्याज भक्त्या बोधम् बोधम् भवजलनिधिम् दुस्तरम् सन्तराम प्रसीद रमण प्रभो मम हृदि प्रभूतम् भयम् निवारय दरिद्रताम् दलय देहि बोधस्वकम् विदेहि करुणानिधे शिरसि मे तवान्ध्रिद्वयम् निवारय जरा मृतिम् वितर वाञ्छितम् श्रीगुरो दीर्घायुष्यम् कथम् इव जयन्ती दिने प्रार्थयामः कर्मायत्तम् भुविम् जनिमताम् आयु आहु महान्तः तान्मोहोत्तान् वशयतु भवान् कालकर्मादिभावाम् तत्त्वज्ञानाद्गलिततमस कालचिन्ता कथम् ते बान्वब्देऽस्मिन् सुपदयुजिते जन्मवारे शुभम् यौ आढ्याभक्ता विलसितकरा सूपहारै महार्घै सेवन्ते त्वाम् रमणकृतिन पूज्यपादम् कृतज्ञा शुद्रास्तोत्रम् त्वदुपहृतये कल्पयम् तातलज्जे श्लोक जय जय रमणेश दीन बन्धो जय जय जनतार्ति नाश हेतु जय जय भगवन् प्रबोध मूर्ति जय जय दहना चलै कलोल श्लोक 29 जय जय करुणामय पुण्य मूर्ति जय जय विश्रुत लोक गीत कीर्ति जय जय भक्त जनार्पितैक भुक्ते जय जय सुंदर दंपति प्रसूते तारावली स्तुति माम रमणेश्वरीयाम श्रुण्वन्ति भुवि पठन्ति च भक्तिभाज वित्तादि वैषयिक सुखेषु विरक्तिरेषाम् संसक्तिरात्म विभवे रमण प्रसादात् इति श्री आत्मविद्याभूषण बिरुदेन जगदीश्वर शास्त्रिणा विरचितम् तारावली स्तोत्रम् सम्पूर्णम् भवानु कार्तिक कृष्ण नवम्याम्
21/11/43
श्री जगदीश्वर शास्त्री कृतम् अभयाष्टकम् ओ ब्रह्मण रमणेश तावक पदाम् भोजद्वये साम्प्रतम् विज्ञाप्यम् रसीदम् एकमधुना श्रोतव्यमित्यर्थये अज्ञातम् भुविनाणुमात्रम् अपि ते सर्वज्ञचूडामणे वक्तव्यम् तु अनुनूदितम् ननु नृणाम् मर्माणि निष्कृन्तति भित्त्वा त्वत्पदपङ्कजेषितवताम् क्लेशप्रहाणेषिणाम् अत्रत्ययुपचीयमानमनिशम् प्रच्छन्न विद्वेषिभिः दुर्वार प्रसरम् भयम् रमणन क्षोभप्रदम् चेतस स्वामिन्नाशय मूलतो अथवा दवा भीति प्रतिज्ञावच संसाराद्वय नाटकस्य च भवान् सत्सूत्रधारयित स्वामिन् मृत्युभियाम् मृकण्ड सुतवत् भर्गाकृतिम् ताव्य किम् मूर्तिम् भव्यदियो पंश शरणमित्याश्रित्य सेवामये किम् वास्मास्वपि ते विहीन करुणम् युक्तम् भयोत्पादनम् वेदान्ते क्वचित् आश्रितं भगवतो भीति प्रदत्वन्तु य माया परिकल्पितार्थ विषयं तत्त्वार्थतां नाश्नुते नो चेदन्त विजानतां तव कृपात् लेशाद् विमुक्तात्मनां नूनं नैव घटेत भीतिरहिता अवस्थत्वम् अव्याहतम् माया कल्पित नाम रूप कलना यावन्नृणां वर्तते तावत्तान समुपैति भीतिरितिः प्रोवाच वाक्वैदिकी अद्वैते परिनिश्चितस्य महसि श्वेते गतान् दृक्पथम् द्वैतान्न कथमेतु भीतिरथवा ताकिन्नरर्थागिरः कल्याणानि तनोतु कोऽपि गुरुरात् कैवल्यदानव्रती यापन्ना भव सत्र दीक्षित इति ख्यात कृपालुक्ष्मी सर्वानर्थनिदानमोहकलिलोद्भूतम् भयम् मानसम् किञ्च श्रीरमण प्रमाशु भगवान् इत्येव न प्रार्थना रमण भगवत् पादाम्बोजे सदा रमताम् मनो रमण भगवत् वक्ताम्बोजे मनः पिबतान् मधु रमण भगवन् मूर्तिम् दिव्या मुहु स्मरतान् मनो रमण भगवत् पादाचार्यो ममास्तु परायणम् श्रोणादीश्वर सञ्चरायमिने माया गृहीतात्मने स्वस्नत्स्थाय कृपारसाद्र मनसे शान्ताय सन्यासिने मग्नान्नाम् भवसागरे भुवि नृणाम् आनन्दमुत्सर्जते तस्मै श्रीरमणाय बोधगुरुवे तन्मस्त्रिसन्ध्यम् नमः कृषीष्ट भगवान् इष्टम् पठताम् अभयाष्टकम् विष्टव्य भुवनम् कृष्णम् य इष्टे रमण गुरु इति अभयाष्टकम् सम्पूर्णम् अथ श्री जगदीश्वरी शास्त्री विरचितम् निरञ्जन षोडशी श्रीशङ्करः अज्ञानान्दतमो विमोहित धियाम् दुर्वाद कोलाहलै आलीने सकले सनातनपते कालेयलीलायितै क्षेमाय क्षितिमण्डले करुणया कृत्वा कृतिम् प्राकृतिम् निर्धूता किल दुर्मतो विजयते श्रीशङ्कर शङ्कर श्रीरमणः पुण्यै भूतल सम्भ्रमै उपनिषद् भाष्यादिवाङ्गुवनै शिष्यैरच्य फलीकृते स्वरचित त्रैलोक्य रक्षाक्रमे दीया शङ्कर सद्गुरु भुवि पुनः जीतावतार स्वयम् सोऽयम् श्रीरमणो गुरु गुण गणै अध्यात्मनिष्ठो मुनिः अविजन सम्भो न खलु चित् ब्रह्म विश्रुते इति परात्मने रमण सद्गुरु सोदर निजाग्रज निभो गुणै निरुपमै निरस्ताञ्जनो निरञ्जन यतीश्वरो जयति सुन्दरि नन्दन अहम् त्वमम ते विना रमण पूज्य पादाश्रमे स भक्ति सकलम्भरम् निरभिसन्धि कार्यस्य यथा गुरु मनोगतम् वहति भाग्य भाजावरो निरञ्जन यतीश्वरो जयति सज्जनानञ्जयन् अशरकुले जनि रमण सद्गुरु सोदर स्वयम् गुण गुणोज्ज्वल सुकृतमेव पूर्तम् कृतम् मतिश्च परमात्मने क्वनु गुणाय मे सङ्गता निरञ्जन यतीशितो महिमा वर्णने केवलम् विशाल सुमन वाटिकाम् विपुल वेद गोशालिकाम् बृहत् वचन मन्दिरम् रमण वाच्यम् आस्थानकम् दिदृक्षु जनता कुटिमकृत वैद्यशालाञ्चयो निरञ्जन यति स किम् कवि वीडितुम् शक्यते मुखाम्बुज विनिर्गता रमण देव पादस्यता अनायशीत मुद्रिता बहिः अगण्य पुण्या गिर कृतम् विविध भारती सदनम् उत्तमम् येन वा निरञ्जन यतीश्वर स खलु कोऽपि दिव्य पुमान् पुरात्र रमणाश्रमे अरुणदरि तटे दुष्कुटि पय प्रसूति पूरितम् तनूधरो य वागूरस सुमृष्ट मधुनोदनम् सदनमेव वासस्थलम् निरञ्जन यतीश्वरो निर्ममीत सर्वम् नवम्
मयूख इव भास्वत द्युति इव क्षपादिशितु स्वयं रमण सद्गुरो अयुत सिद्ध भावं श्रित त्वय करुणादृशाम् समवलम्ब्य सूक्ष्ममायम् निरञ्जन यतिर्वह अखिलम् आशमीयम् भरम् मूलाधारैक संस्था वलयित शिखिने कुण्डलिन्याख्य शक्ति ब्रह्मानन्द प्रदात्रि परतर महिमा मातृभूतेश्वरोऽयम् हार्दस्थानम् प्रशस्रम् रमण मुनिवरो भक्त सङ्गाश्च गावः चेतो निःशब्द पूर्वान् जनयति इति चोत्प्रेक्ष्यते सूक्ष्मदृष्ट्या गजानन षडानन द्वैतस्य योगाम्बिका पतेऽपि सनन्दिनो वरद मातृभूतेषितु यशोमयमिव स्वकम् रचयति स्म देवालयम् निरञ्जनयति द्विजै अपि च तस्य पूजाक्रमम् महाणवमपि स्वयम् प्रतिशरत्सु वैशाखके निरञ्जनयति करोत् अमित भक्त दानम् तथा निरञ्जनयते स्वतो न खलु शक्ति एतावती न चेत् सकल शक्तिमत् रमण सन्निधानाशय अयत्न परमाद्भुतम् चलति कार्यमन्यादृशम् निदर्शनम् इदम् विदाम् अखिल कामला भेदृढम् अयत्न परमाद्भुतम् चलति कार्यमन्यादृशम् निदर्शनम् इदम् विदाम् अखिल कामलाभे नृणाम् समस्त जगताम् गुरु सकल ताप संहारिणः समग्र तपःसतो भगवतोऽपि तेजो निधे शुभावतरणोत्सवम् प्रतिसमम् धनुमासगे पुनर्वसु शुभे दिने कुरुत एष पुण्यप्रदम् अरुन्तदम् इदम् निरञ्जनयतो गुणैकाश्रये गुणागुण विवेचनम् रचयिता यत् अग्नोजन कियच्चर करितम् महत् दुरित तुल्य दुश्चेष्टितम् सुरारि सदृशैकलै रमण देव दिव्याश्रमे तुषार इव भास्वता यदपि येन निर्वापितम् रिपुञ्जय निरञ्जनम् स खलु रामणो वन्द्यते अमूल्यकृत सेवकै स्वक यथात जिज्ञासुवि स भक्ति विनयम् मुदा निखिल कार्यमन्योन्कनकम् विभज्य च यथोचितम् वहति नीति दत्ते क्षण निरञ्जन यतिर्महाम् मतीति इह सङ्केतक गुणा असद् अवेक्षिता अपि भवन्ति दोषायिता सताम अवगुणा गुणा अपि भवन्ति दृग्गोचरा
वर्स नंबर 15 हाफ ओनली दी मैनुस्क्रिप्ट इज अवेलेबल बैलेंस टू बी चेक्ड एंड ट्रेस्ड आउट एंड देन टू बी एडेड हियर इन ऑडियो नाउ वर्स नंबर 16
जनयतीश्वर स्तुतिम अवेक्ष निंदन्तु वा असन्तु च तपन्तु वा प्रतिभया सुयालव न वा मृग भयान्नरा न निवपन्ति शालिनक्षितौ रसग्नमणि एकको रमण एव वा तुष्यतु इति श्रीनिरञ्जन षोडशी सम्पूर्णम् श्रीमत् अप्पय दीक्षित विरचित श्री अपितु कुचाम्ब स्तव आनन्द सिन्धु लहरिम् अमृतांशु मौले आसेविनाम् अमृत निर्मित नर्तिमक्ष्णो आनन्द वल्लि विततेरमृताद्र कुच्च अम्ब स्मरामि अहमपित कुचेव पूस्ते निर्निद्र कोकनद कोमल कान्तमम्ब नित्यम् सुधा निकर वर्षि पदम् त्वदीयम् मूर्छाकर ज्वर रुजा ममता पितास्य मूर्ध्नि क्षणम् सकृदपित कुचे निदेहे एतांशु कोटि सुषुमा शिशिरै कटाक्षै अव्याज भूत करुणा रस पूर पूर्णे कर्पूर धूलिमिव दिक्षु समाकिरद्भि अम्बक्षणम् स्नपयम् माम् अरुणाद्रि मान्ये आविर्भव क्षणमपि तकुचे पुरस्तात् अम्बज्वरेण महताम् ममतापि तस्य येन त्वदङ्घ्रि रुचि जाल सुधा प्रवाहे मग्नस्तदैव तनुतापम् अमुम् त्यजेयम्
अनाविधै नलिन जातलिपि प्रकृप्तै आनीत मूर्छमधिकम् क्षुभितै ज्वराद्यै आश्वासय क्षणमपि तु कुचेकराग्र क्रीडा कनकवण कहल्लक सौरभेन कण्ठे विषम् विषमुचो भुजगा कपर्द्रे पार्श्वे च भूतपतय प्रमथाश्च भीमा क्षोणाचलेश उपसृत्य भजेत को वा न स्यात् वाम्ब सविधे यदि सन्निधानम् शक्तिर्जगज्जनन पालन भञ्जनेषु भोगेषु दिव्य महिषी तरुणेन्दु मौले सिद्धिकर प्रणयिनी तव सन्निधानम् यन्नासि तस्य तदपि त कुचे न जाने त्वम् साक्षिणी प्रलय भैरव ताण्डवानाम् त्वम् शेषिणी सहरी धातृ चराचराणाम् त्वम् मोचिनी सकल संसृति जालकानाम् त्वाम् ब्रह्म संविदमपि त कुचे नमामि। इति श्री मद् अप्पय दीक्षित विरचित श्री अपित कुचाम्बास्तवः सम्पूर्णवः।